नमस्ते, पुनः अस्माकं वर्गं प्रति स्वागतम्। आदौ एकं श्लोकं पठित्वा वयम् अग्रे सरेम। स्क्रीन् सर्वे अपि द्रष्टुं शक्नुवन्ति किल? स्पष्टं
पश्यामि।
अस्तु, अधुना रङ्गमहोदय कृपया पठतु।
यस्तु दाशरथिर्भूत्वा रणे हत्वा च रावणं ररक्ष लोकान् वैकुण्ठः तं मां रक्षतु
चिन्मयः स मां रक्षतु चिन्मयः इति अत्र श्लोकः। आदौ श्रूयते किल मम वचः?
श्रूयते।
अस्तु अस्तु, उत्तमम्। अस्तु, यस्तु यः यः प्लस् तु यस्तु, अत्र अस्ति यः प्लस् तु यस्तु दाशरथिः भूत्वा, दाशरथिः एकं पदम्, अनन्तरं भूत्वा अपरं पदं, रणे हत्वा च रावणं ररक्ष लोकान् वैकुण्ठ सः सः सन्धिकारणेन अस्य लोपः भवति, तद् अनन्तरं चिन्तयाम। सः मां रक्षतु चिन्मयः, अयं श्लोकः। अत्र अधुना पठ्यमान त्वान्तरूपं वर्तते भूत्वा इति। भूत्वा पुनः अपरं क्रियापदमस्ति अत्र रक्षतु। अत्र द्वे क्रियापदे स्तः, रक्षतु ररक्ष उभयोः अपि, नाम एकमेव अत्र तु भूतकाले अस्ति, ररक्ष नाम अरक्षत् इति। किमर्थं ररक्ष इति अस्ति अनन्तरं चर्चयाम, किन्तु अरक्षत् इति अर्थः नाम भूतकाले, प्रोटेक्टेड् इति अर्थः। अत्र लोट्लकारे अस्ति, तत् स्पष्टमेव अस्ति, अत्र रक्षतु अस्ति। अन्वयः अधुना कथं भवति? यः यः वैकुण्ठः, वैकुण्ठं नाम कश्चन प्रदेशः, विष्णुस्थानं वैकुण्ठं, किन्तु वैकुण्ठः पुंलिङ्गे तु साक्षात् श्रीमहाविष्णुः एव, वैकुण्ठः नाम श्रीमहाविष्णुः। यः वैकुण्ठः, यः वैकुण्ठः, अस्तु, दाशरथिः, दाशरथिः भूत्वा, दाशरथिः भूत्वा भवति भूत्वा, पठति पठित्वा, यः वैकुण्ठः दाशरथिः भूत्वा रणे, रणं रणे, रणं पदस्य सप्तमी एकवचनं, रणे युद्धे रावणं हत्वा, यः वैकुण्ठः दाशरथिर्भूत्वा रणे रावणं हत्वा लोकान्, लोकान् नाम लोकः नाम वर्ल्ड् इति अर्थः किल, लोकान् द्वितीय बहुवचनं, लोकान् अरक्षत् ररक्ष, सः वैकुण्ठः, सः वैकुण्ठः, सः चिन्मयः, चिन्मयः नाम सर्वे जानन्ति इति भावयामि, चिन्मयः मां नाम मां रक्षतु इति आशा। यः वैकुण्ठः दाशरथिः भूत्वा रणे रावणं हत्वा, यः वैकुण्ठः दाशरथिः भूत्वा रणे रावणं हत्वा लोकान् ररक्ष सः मां, सः चिन्मयः मां रक्षतु इति अन्वयः. अर्थः स्पष्टः वा?
चिन्मयः मीन्स् व्हाट् यू सेड्?
चिन्मयः आनन्दस्वरूपः,
आनन्दस्वरूपः, ओके.
चिदानन्दरूपम् इति पदं वा, चिद्रूप.
ओके, इस् इट् भूत्वा आर् भूत्वा? देयर् आई सी अ
दाशरथिः प्लस् भूत्वा, दाशरथिर् भूत्वा.
ओह, ओके.
सन्धिकारणे तत्र रेपः भवति अत्र उपरि. दाशरथिः प्लस् भूत्वा, दाशरथिर् भूत्वा.
ओह, ओके, ओके. भूत्वा अतः किम्? अतः कः?
सॉरी, उदाहरणाय नटराजः वैद्यः भूत्वा सेवां करोति.
ओके, आफ्टर् बिकमिंग् अ डॉक्टर् ही विल बी डू अ सर्विस्. ओके, भूत, ओके, भवती भूत्वा,
भूत्वा.
ओके, फाइन.
पश्यन्तु, अत्र भविष्यकाले नास्ति, भूतकालार्थे अस्ति. किन्तु अधुना न करोति अथवा अग्रे न करिष्यति, पूर्वं कदाचित् एव सः लोकान् रक्ष. अतः एव भूत्वा इति पदम् अव्ययम्. वर्तमानकाले, भूतकाले तथैव भविष्यकाले अपि पदं तु समानमेव, भूत्वा इति एव. न त्वान्तरूपं सर्वाणि अपि तथैव.
ररक्षः,
ररक्षः न ररक्ष, तावदेव. ररक्ष नाम रक्षति. कः अर्थः?
सेव्, सेवियर्, सेव्.
भूतकालार्थे ररक्ष, तावदेव.
ओ, ओके, अस्तु.
भूतकाले ररक्ष इति पदं, तावदेव. स्पष्टः वा अत्र श्लोकः? स्पष्टः,
स्पष्टं महोदय.
अन्येषां का गतिः?
सो दाशरथि इस् अ सन् आफ् दशरथ.
सत्यं, सत्यं,
सत्यं. श्रीराम,
थैंक यू.
सो दाशरथि, एर्लियर वि रेड सन् इस् ईदर पुत्रः आर्
दशरथस्य पुत्रः इत्यतः सः दाशरथिः.
ओके, okay, so just it's dasharati, we can't it doesn't have the word son or anything here, it's just a
satyam
adjective, satyam. Something like that.
Okay, satyam. Natarajasya putrah kadapi dasharati na bhavati. If you can name him dasharati, that which is different, but okay. Atra vaikuntah dasharata san is dasharati,
bhavadeva. Okay, okay, okay. Astu,
yes tu,
yaha tu, yaha plus tu.
Yaha, what do we mean by
yaha nama? Udaharanaya yaha, yaha navavadana paryantam nidrati saha alasaha. Yaha navavadana paryantam nidrati saha alasaha. Yaha trishulam dharati सह शिवः.
ओ, ओके,
सो दैट हु,
दैट पर्सन हु वेव्स त्रिशूलम इज शिवः.
यः सः.
हा, ओके.
एवं सति अधुना ऊहां कुर्वन्तु सर्वे कृपया. या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता, नमस्तस्मै, 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 नमो नमः. नमस्तस्यै, क्षम्यतां, नमस्तस्यै. या देवी,
यः इस् हु,
हु, दट् हु, नाट् जस्ट्, नाट् जस्ट् हु, दट् हु.
अधुना यः इत्यस्य रूपाणि सर्वाणि सुलभानि, सरलानि भवन्ति. यथा कः इति पदस्य, कः इति तथा पदस्य न वक्तव्यं, यदा पुनः बहुवारं पूर्वमपि उक्तं मया. कः इति पदम् इति पदस्य रूपाणि न वक्तव्यं कदापि. किम् इति प्रातिपदिकं, पुंलिङ्गे तस्य रूपमस्ति कः. अस्तु, प्रथम एकवचनं कः भवति, प्रथम द्विवचनं के, अत्र पुंलिङ्गे किम् अस्ति, किल, अथैव अधुना यः इति पदस्य किं भवति यः यौ ये अत्र यं ये यान् क्षम्यतां कं के कान् न पुंलिङ्गे पुंलिङ्गे प्रथम पुंलिङ्गे द्वितीयविभक्तिरूपाणि कं के कान् अत्र यं ये यान् तावदेव
सो यः इस् दट् हु आर् जस्ट् हु
पुंलिङ्गे दट् हु सर्वत्रापि सहैव अर्थः पुंलिङ्गे यः भवति स्त्रीलिङ्गे या भवति नपुंसकलिङ्गे यत् भवति तावदेव
Okay, just for our understanding, can you use that word yastu in some other context, in some other word? How do
yaha I... Yahat astu, udaharanaya. Uktam kila purvam, yaha trishulam dharati saha shivaha.
Oh, okay.
Astu, yaha, yaha trishulam dharati aham tam namami. Yaha trishulam dharati aham tam namami.
So what is this tu doing there?
Tat just a filler sitava deva. Tu is just a filler. Sandhika sandhatra. It's just to actually fill in the you know, it's to complete the chandas there. That's it. Nothing more than that.
So it's even right if it is just written as yaha dasha riti, he also is.
In prose, you can say that, but in shlokas, you know, you need the chandas, right? Each pada has to have so and so letters, so many letters.
Okay.
That is why we put these fillers like tu, he, so on and so forth. That's it.
So they are saying 16 letters should be there in each.
Satyam. That is why, you know, they add those fillers like tu.
Okay.
Clear? Don't worry too much about this yaha for now. That's not our discussion. I wanted to show how bhavati bhutva is being used. That's it. That is my intention here. Clear? Okay. अत्र अस्तु अत्र एतावत् अस्माभिः केवलं त्वान्तरूपाणि अधुना अतः उपसर्गेण त्वान्तरूपाणि कथं भवन्ति ओके पश्यामः अधुना द्वितीयः कः आसीत् सः पठतु कृपया सः वा सा वा सुभाषिनी पठतु कृपया अस्ति वा भवती
हा महोदय बालकः उत्तिष्ठति देवं नमति बालकः उत्ताय देवं नमति
अनन्तरं
बालकः गृहं प्रविशति हस्तौ प्रक्षालयति बालकः गृहं प्रविश्य हस्तौ प्रक्षालयति
धन्यवादः अत्र पश्यन्तु सर्वे कृपया उत्तिष्ठति इति पदमस्ति किल अत्र उत्तिष्ठति इति अत्र पश्यन् अत्र उत्तिष्ठति इति पदम् अत्र किमस्ति उत् उपसर्ग प्लस् तिष्ठति तिष्ठति इति पदस्य साक्षात् तिष्ठति इत्यत्र रूपं किमस्ति स्थित्वा एवं रीत्या भवति उत्तिष्ठति उत्थाय सामान्यतया त्वान्तं भवति तु वा एवं रीत्या भवन्ति अत्र ल्यबन्तं भवति ल्यप् ल्य ल्य पश्यतु ल्यबन्तं भवति नाम यकार अन्ते यकारः तिष्ठति उत्थाय अत्र प्रविशति प्र प्लस् विशति अतः अत्र प्रविश्य प्रविश्य प्र अत्र विश् धातुः अस्ति विश् प्लस् य प्रविश्य अत्र उदाहरणानि पश्यामः तेन इतोपि स्पष्टं भवति तृतीयः कृपया यः कोऽपि अस्ति शङ्करमहोदय
अध्यापकः ग्रन्थम् अध्यापति अध्यापयति प्रश्नं पृच्छति अध्यापकः ग्रन्थम् अध्याप्य प्रश्नं पृच्छति
अध्याप्य प्रश्नं
अध्याप्य प्रश्नं पृच्छति
अनन्तरम् अपरमपि करोतु ग्राहकः
ग्राहकः वस्तु स्वीकरोति धनं ददाति ग्राहकः ग्राहकः वस्तु स्वीकरोप्य धनं ददाति
स्वीकृत्य धनं ददाति अत्र सर्वे अर्थाः स्पष्टाः इति मन्ये यदि स्पष्टता नास्ति कृपया पृच्छन्तु अस्तु अपरमपि करोतु महोदय कृपया
आचार्यः ग्रन्थं परिशीलयति अध्यापनं करोति आचार्यः ग्रन्थं परिशील्य अध्यापनं करोति
आचार्यः ग्रन्थं परिशील्य अध्यापनं करोति अस्तु चतुर्थः रविमहोदय कृपया अग्रे
जननी द्वारं उद्घाटयति अतिथिं सत्करोति जननी द्वारं उद्घाट्य अतिथिं सत्करोति
अनन्तरं
समाजसेवकः धनं संघनति
संगृह्णाति
समाजसेवां करोति समाजसेवकः धनं संग्रह्य समाजसेवां करोति
अनन्तरं
सङ्गृह्णाति अर्थः कः
यथा अत्र म्यूसियं जनाः सन्ति किल ते वस्तूनि सङ्गृह्णन्ति
मीन्स्
तत् सन्दर्भानुसारम् अवगच्छतु कः अर्थः इति म्यूसियं जनाः वस्तूनि सङ्गृह्णाति
समाजसेवकः धनं सङ्गृह्णाति समाजसेवा करोति समाजसेवां करोति ओके यू विल कलेक्ट द मनी एंड देन यू डू द हेल्प ओके ओके
अनन्तरं अर्चकः करोतु रविमहोदय भवानेव करोतु
नेक्स्ट वन ओके अर्चकः प्रतिमां संस्थापयति पूजां करोति अर्चकः प्रतिमां संस्थाप्य पूजां करोति
उत्तमं प्रतिमाम् अत्र पश्यन्तु सर्वे किमर्थमहम् एवं रीत्या करोमि नाम अत्र बहूनि पदानि सन्ति अस्तु कस्यां विभक्त्याम् अस्ति इत्यपि द्रष्टव्यं भवति अस्तु अर्चकः अतः सः कार्यं करोति प्रतिमा ప్రతిమాం సంస్థాపయతి ఇత్యస్మాత్ ప్రతిమా ఇతి పదం అత్ర ద్వితీయ విభక్తౌ అస్తి. అర్చకః ప్రతిమాం సంస్థాప్య అనంతరం అర్చకః ఏవ పూజాం కరోతి. అస్తు, కిం కరోతి? పూజాం కరోతి. పూజ ఇతి పదమపి ద్వితీయ విభక్తౌ అస్తి. స్పష్టం వా? అస్తు, అగ్రే అంబా మురళీజీ.
ఆకాశవాణీ ప్రచాలయతి గీతం శృణోతి. భగినీ ఆకాశవాణీ ప్రచాలయ
ప్రచాల్య
గీతం శృణోతి. అనుజా ద్వారం ప్రక్షాళయతి. రంగవల్లీం లిఖతి. అనుజా ద్వారం ప్రక్షాళ్య రంగవల్లీం లిఖతి. జననీ అతిథిం సత్కరోతి భోజనం దదాతి. జననీ అతిథిం
అతిథిం అతిథిం
అతిథిం సత్ సత్ సత్కృత్య భోజనం దదతి.
భోజనం దదాతి. దదతి న దదాతి.
దదా దదాతి.
స్పష్టం కిల?
yes.
ధన్యవాదాలు. అగ్రే నటరాజన్ మహోదయ.
యువకః ఆసందే ఉపవిశతి జలం పిబతి. యువకః ఆసందే ఉపవిశ్య జలం పిబతి. బాలకః వృక్షం ఆరోహతి ఫలాని ఫలాని అవచినోతి. బాలకః వృక్షం ఆరోహత్య ఆరోహ్య ఫలాని అవచినోతి. అవచినోతి అర్థః క? అర్థః క?
సందర్భానుసారం కః అర్థః?
పల్క్ పక్ ప్లకింగ్.
అతః తావదేవ.
ఓ ఓ అవచినోతి. ఓకే. ప్లక్.
He wouldn't actually eat after, you know, climbing onto the tree, right?
Okay. Asaha mam anusarati vegan
vegena
agat vegena agacchati. Saha mam anusrutya vegan agacchati.
వేగేన ఆగచ్చతి.
ఓ సారీ, వేగేన. ఓకే. వాట్ ఇస్ ద సెంటెన్స్ మీన్? ఐ డిడ్ గెట్ ఇట్.
అనుసరతి. అనుసరతి నామ ఫాలో ఇది అర్థః. సహ మాం అనుసరతి వేగేన విత్ స్పీడ్ ఆగచ్చతి.
ఓ, వేగేన. ఓకే ఓకే ఓకే. ఆ స్పష్టం.
అస్తు, అధునా అత్ర కౌసల్య భగిని అగ్రే కృపయా. ఏతాన్
స్థానేన గచ్చతి గత్వా ఆగచ్చతి ఆగత్య తిష్ఠతి స్థిత్వా ఉత్తిష్ఠతి ఉత్థాయ. గచ్చతి గత్వా అవగచ్చతి అవగమ్య.
హరతి
హరతి హృత్వా విహరతి విహృత్య. ప్రేషయతి ప్రేషయిత్వా సంప్రేషయతి సంప్రేష్య. సరతి శ్రుత్వా అనుసరతి అనుసృత్య.
ఇదమపి పఠతు. ప్రక్షాళయతి ప్రక్షాళయతి ప్రక్షాళయతి.
క్షాళయతి క్షాళయిత్వా ప్రక్షాళయతి ప్రక్షాళ్య. హసతి హసిత్వా उपहसति उपहस्य भवति भूत्वा अनुभवति अनुभूय
अत्र किञ्चिदिव परिश्रमः करणीयः सर्वैः अपि कृपया कथं स्पर्तव्यम् एतानि सर्वाणि रूपाणि इति प्रश्नः न करणीयः आदौ तु केवलं रटनं जस्ट् मेमरैस् ओके भूयो दर्शनेन सर्वं सिद्ध्यति डोण्ट् वरि
आगच्छति अवगच्छति
न न न आगच्छति अवगच्छति नाम टु अण्डर्स्टाण्ड्
ओके ओके आगच्छति मी कमिंग बैक ओके
सत्यं
एंड एंड शिखर संप्रेषयति अर्थः कः
संप्रेषयति
सेंड
सहेवर्धः तत्र पार्थक्येन किमपि न सर्वदा उपसर्गयोजनेन तत्र किमिति अर्धस्य भेदः भवति न चिन्तनीयम् अर्धः भिद्यते इति सता नास्ति एव सम्प्रेषयति प्रेषयति सहेवर्धः सेण्ड् सेण्ड् इति एव अर्धः तत्रापि
अस्तु अस्तु तथैव क्षालयति प्रक्षालयति अर्थः समानं समानः समानम् अर्थः समानम् समानः
साम्यम् अस्ति इति समानः इत्यपि वक्तुं शक्यते समानः एव
अर्थः समानः ओके
अर्थः समानः सत्यं
So to clarify myself, there are two kinds. One is with upasarga and one is with yati. And both will have the same ending like this.
Which will have the same ending?
One is with upasarga, like it adds like avu, like that. Other one ends with yati. So both will have the same...
No, no, it has nothing to do with yati. Okay.
Only the upasarga.
Yeah, you are like, for some reason, you are like very hooked on to the yati forms.
Yati, no, yes, yes.
This I has know. Nothing to do with yati.
Okay.
If you have upasarga, you get ya as the ending. If you don't have upasarga, you wouldn't get ya as the ending. You get the thwa ending still. That's it.
Okay.
And similarly, Shekhar, one more thing. The bhavati and anubhavati. Bhavati is becoming. Anubhavati is experience, right?
Satyam.
This anubhavati has nothing to do with bhavati.
Satyam. Okay. Anu is the upasarga there. That's it.
Okay.
And upahasati is also sahati, upasahati, samanameva.
No, no, no. Hasati is you laughing. Yeah. Upahasati is you ridiculing someone.
Oh.
Spashtam?
Astu.
अत्र उपसर्गः उपसर्गाः भवन्ति इति उक्तं किल अत्र के ते उपसर्गाः इति प्रश्नः स्यात् अस्तु तदहं तत्र प्रेषयिष्यामि अधुना उपसर्गाः नाम ईदृशानि अत्र किमपि अस्ति किल अत्र परि आ प्र सम् अनु उत् एते सर्वे अत्र उपसर्गाः अस्तु किमर्थं नाम तस्य प्रयोगः कुत्र भवति इति अग्रे वयं चर्चयामः एतावत् स्मरन्तु यत् आ उत् सं निर् निस् दुर् दुस् एवं रीत्या भवन्ति उपसर्गाः नाम तावदेव तत् पर्याप्तम् अधुना इतोपि तत्र चिन्तनं मा कुर्वन्तु कृपया अग्रे पुनः पठामः वयम् Any questions?
Etani sarvani ratanam karomi va?
You think it's difficult, but it's not. It's not difficult at all. Don't worry. It's you don't have to asto. You don't have to like memorize everything now. Okay, like for example, right? Gachati. You know the word gachati. Okay. If you see the word abhyupagachyati, you understand that, you know, okay, fine, abhi and upar upasarga is there. If you know one form, just by, you know, when you listen to the other form, you'll easily figure it out. You know tishtati for sure. You know tishtati. Okay. when you listen the word uttishtati, okay, you realize that unite has an upasarga there. If you know rakshati, if you know rakshati, when you hear samrakshati, okay, you realize that, you know, sam is upasarga there. Gachati pratigachati, vishati upavishati, apnoti prapnoti, tyajati tyajati parityajati. Svikaroti, karoti, svikaroti. Svikaroti is not an upasarga there, but it's, it behaves like an upasarga. Like I said, we'll discuss about upasarga later in detail, but this is good for now. Any questions?
Not for now.
अधुना एवं कुर्वन्तु सर्वे कृपया अस्तु इदमपि कुर्मः अधुना एव कुर्मः अनन्तरं कौसल्याजी करोतु कृपया भवती
योगेन वाक्यानि योजयन्तु अध्यापकः आसन्दे उपविशति प्रश्नं पृच्छति अध्यापकः आसन्दे उपविश्य प्रश्नं पृच्छति
स्पष्टमिति मन्यत अध्यापकः आसन्दे उपविश्य प्रश्नं पृच्छति अनन्तरं पद्मजा भगिनी पठतु कृपया
जनकः स्नानं करोति पूजां करोति जनकः स्नानं कृत्वा पूजां करोति
उत्तमम् अनन्तरं तृतीयः
सॉरी वन 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 क्वेश्चन हियर इन द लास्ट क्लास यू सेड वी रीड स्नात्वा आल्सो कैन बी यूज्ड राइट वी आर
यू कैन से जनकः स्नात्वा पूजां करोति अथवा स्नानं कृत्वा पूजां करोति युक्तमेव
ओके ओके
बिडालः गृहं प्रविशति दुग्धं पिबति बिडालः गृहं प्रविश्य दुग्धं पिबति
उत्तमं स्पष्टमिति पञ्च किल अत्र वल्ली वल्ली भगिनी
लक्ष्मणः सीता च रामं अनुसरतः वनं लक्ष्मणः सीता च रामम् अनुसृत्य वनं गच्छतः
उत्तमं पुनः सर्वे कृपया अत्र पश्यन्तु बिडालः प्रविश्य लक्ष्मणः सीता च अनुसृत्य अत्र कर्ता एकः एव अत्र पश्यतु द्वौ स्तः लक्ष्मणः सीता तथापि अत्र अनुसृत्य इति भवति
सो इफ देयर वाज ओन्ली वन कर्ता देन
यथा तत्र प्रविश्य अनुसृत्य एव भवति अत्रापि लक्ष्मणः अनुसृत्य लक्ष्मणः रामं अनुसृत्य वनं गच्छति लक्ष्मणः सीता च रामं अनुसृत्य वनं गच्छतः ओके भेदः न भवति स्पष्टं वा
सो इफ् इट् इस् ओन्ली लक्ष्मण यु आर् सेयिङ्ग् अनुसत्व
No, no, Anusrutya. Even then it's Anusrutya.
Sorry. Yeah, Anusrutya. Okay. Okay. Bahuvachana or Anusrutya?
No. Natarajan Mahadaya, Krupaya, Ekavaram Vadatu. Kim Avagatam Bhavata?
Okay. The entire sentence is it? Lakshmanaha Sita Cha Ramam Anusrutya Vanam Gachataha. Lakshmanaha Ramam Anusrutya वनं गच्छति
दैट्स इट सत्यम इफ लक्ष्मण इफ यू से लक्ष्मण एंड सीता हियर this year is gachatah. If you just say Lakshmanah, this year is gachati. That's
gachati,
it.
Gachati, yeah.
But this rupam doesn't change at all. Anusrutya is only the rupam. Here it is always going to be anusrutya. It is independent of vachanam. Is this clear?
Yes, clear. Ashtamadhyay.
Yeah. Shankar Mahadeva Anya Sarveyapi Krupevanta Ambaji Subhashini ji, is this
clear? Yeah, clear.
Clear?
Yeah, it's
clear.
Yes, question. Yes, question. Okay.
Yeah. Anantam, Ranga Mahadeva, Punaha. Aramakarutu.
Mahila Mandiram Gachati Devam Namaskaroti. Mahila Mandiram Gatwa Devam Namaskaroti. Tvam Mitram Tvam Mitram Upakaroshi Santushtaha Bhavasi. Tvam Mitram Upakaroshya
Karoti, kim bhavati? Upakaroti.
Upakaroti santustaha bhavasi.
Upakrutya, upakrutya. Karoti krutva. Upakaroti upakrutya.
Upakrutya. Okay.
Upakaroti.
Upakaroti artha helping
it. Tavadeva. Am.
Upakrutva.
Ukrutya, krutya. Upakrutya.
Okay.
Upakrutya santushtaha bhavasi.
Bhavasi.
Itopya angarutus? Saptama papi.
Balakau phalam khadataha shayanam karutaha.
Kurutaha.
Oh, sorry. Kurutaha.
Balakau
phalam khaditva shayanam kurutaha.
Pashtam kela? Astu. Anandam Subhashini ji.
Astu. Balakaha apanat kandukam anayanti kridanti. Balakaha apanat kandukam anayitva kridanti.
Na, pashyato. Nayati samanya padam. Nayati. A plus nayati. Anayati. So, aniya.
Aniya kridanti.
Aniya.
Aniya kridanti.
Bhaktaha. Bhaktaha. Karoto.
Bhaktaha nadhyam snanati.
Snati.
Snati suryaya argyam yachati. Bhaktaha nadhyam snatitva.
Snatva.
Snatva.
Snatva suryaya argyam yachati.
Suryaya argyam yachati. Astu, idam api karoto. Janani.
Janani putran. Ahyati.
Ahvayati.
Ahvayati bhojanam dadati.
I'll tell this, don't worry. Ahuya.
Ahuya.
Okay. Janani.
Janani putran ahuya bhojanam dadati. Ahuya means to call?
Yeah, satyam tavad.
Okay. Shikar, ekam prashnam.
Ekaha.
Ekaha prashnam. 6-1. If you go to 6 sentence. What are they trying to say? I couldn't understand the sentence. Tvam mitram upakaroshi santushtaha.
No, hang on. Just read until here first.
Okay.
What is the kriya? You know what upakaroshi means?
Yeah, helping. Yeah.
Tvam mitram upakaroshi.
Can I try?
Now go ahead, Shankar.
So if you help your friends, they can be happy.
No.
You are happy.
Exactly. Evam chintayanto. Tvam mitram upakaroshi. Tvam santushtah bhavasi.
Oh, okay.
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 Because the karta is the same, right? You have to realize that.
That's right. Yeah, that's right.
The karta is the same. You can also say tvam mitram upakaroshi saha tvam mitram upakrutya saha santushta bhavati. No, you can't say that.
Bhavati. Right. Okay.
Okay.
I have another question on that sentence on the verb upakaroshi. Maybe I missed it. I'm sorry.
Why is it not si?
Yeah.
I got it. Okay. Because you know you have because you have that repa there. Just there's a lot more there. Just you know for karoti it's karoshi. Just let it be that way for now.
Okay. So karosi is wrong if we write.
Yes.
Okay. Thank you. Thank you.
And also arkyam itite kim
arkyam, so you know we
it's a ritual, right? It's one of a ritual where we
do that in sandhya vandanam, right? We give arkyam to
oblation.
Huh?
Arkyam is oblation.
Something like that.
I'm very very bad at giving these translations. You should have realized that by now. Sorry. I don't know.
It's basically an act of just pouring water with your hand, like that's what Argyam means.
Yes.
As an offering kind of thing.
Yes.
Oblation, that's something close to that.
So, Natraj Mahathir. Sandeha apakataha va? Is this clear now? Tvam mitram upakaroshi. So, tvam kam upakaroshi mitram. Mitram upakaroshi. Tvameva punaha santushtah api bhavasi. Tvam mitram upakrutya santushtah bhavasi. Atra yadyapi tvam iti padam nasti adhyaharha karaniyaha. You have to like answer.
Right. Yeah. That I got, but I got confused with the mitram because I was confusing that with the this one, the dvitiya vibhakti. I was wondering.
This is dvitiya bhakti.
This is dvitiya. No. Okay. If you help your friend.
Okay.
Right. I'm not.
You help a friend. Why do you have to say your friend? You help a friend.
You help a friend. Okay.
That's it. It's something like this, right? If you say, you know, I'm looking at the sun. You're obviously looking at the sun for your solar system. That's it. So when you say you help a friend, why you're not helping someone else's friend?
Okay.
Helping a friend makes you happy.
Yeah, that's it. You're helping a friend, it's making you happy and you're becoming happy. That's it.
Okay, so then when I'm saying helping a friend, let's say, for example, I'm helping Rama. Do I use dvitiya for that also?
Because you're helping him, right? Upakaram. Whom are you helping? Whom? So you need to question tvam with karoshi. Tvam kam upakaroshi athava kim upakaroshi mitram dvitiya bhakti.
Okay.
If you don't have this in dvitiya bhakti and you think this is as prathama, tvam mitram means you are a friend and you are helping. But you are helping a friend. This is different.
Okay. Okay, fine.
Is this clear?
Yeah, it is clear. But again, because I tried to understand it from other tongue and all that, I got confused.
Yeah, Tvam is a subject here and then Mitram is an object there.
Satyam.
That way, you know, it will be easy, yeah.
Sarvada krupe sarve smarantu.
Okay.
Identify the kriyapadam first. And who is the karta? Okay. Who is doing the kriya? Atra pashyatu. Mahila. Prathama vibhakto asti. Sarvada karta prathama vibhakto eva bhavati. Okay. Mahila gachati. Kutra gachati, mandiram gachati. Idam pashyatu. Lakshmanah anusarati. Atra ekavachane svikurmah adhuna. Lakshmanah anusarati. Lakshmanah kam anusarati. Lakshmanah ramam anusarati. Bidalah pravishati. Bidalah kim pravishati. Gruham pravishati.
Yeah, in those places I got it, but then where I got confused on six, right? If you try to convert it, I try to understand it from in the, from a mother tongue form, probably in Telugu also, I think this holds good. The way we say I help someone and the way I lead someone or I follow someone, the last word there that we use is different, right?
For example?
That's very good. For example, that's what I only in Telugu, I don't know that much Telugu to say whether there is a difference, but in Tamil, definitely it is different. I don't know anyone who understands Tamil, probably I can say. Is there anyone who understands Tamil?
We only have Telugu and Tamil batch here, don't worry.
Yes. No, I think, yeah, only. Okay, so what we say is, Naan Ramanai Aditha Chilgiren. There we say Ramanai. For that, we use Vithya. Naan Ramanukku Udavi Seigiren. We say Ikku. Which is generally the fourth one, right? Which is a...
Illa, Ramanukku, apdiingiradhu, second vibhakti, rendavathu vetrume. Neenga Tamil vetrume
padichirukkeenga,
adhu rendam vetrume.
Illa, correct.
Ramanukku Madurai, Madurai-kku-ngiradhu, I-ngiradhu, rendume rendam vetrume.
Illa, correct. Na vandu Ramanukku panam koduthenrumbodhu, nama vandu, we don't use rendam vetrume, illa?
Ramanukku is... English la sollana, the action is performed on whom? The action is performed on whom? See, panam kodukkiradhu is the action and the Ramanukku is, it is performed on him, the giving the money to him. So, Raman
I think about Chaturthi here.
That's where I got confused.
Okay, okay. Right? No. Yeah, okay. I see what you're saying now. Okay. So, yeah, that ku, I think I got it now. Okay. You think about Chaturthi now? No, it's not Chaturthi here.
Right. Yeah, that's where I got confused. Okay. Got it now.
It's Vithya only.
Okay.
Okay. Agree. Okay, na pratham adana Shankar Mahodaya adana patatu.
So agatva.
Hang on. First read this one very carefully. You shouldn't say agatya. It's agatya.
Correct. Agatva is wrong. So agatya.
Yes. Okay.
Sangrihitva.
Just to be safe, just read these forms, okay? Look at these forms. You should not choose these forms. Just read these forms.
Yeah. Agatya. Sangrihya. Sankalaya.
Sankalaya.
Sankalaya. Prakataya. Prapya. Sampreshya. Upaveshya. Aniya, Pariveshya, Sangamaya, Alohya. I think you need to scroll down a little bit. Alodya, Samapya, Sansmrithya, Sammilya, Sanstapya, Prastaya, Vilikya, Nigrithya, Nirgatya, Nirgatya, Vignaya, Vihasya, Upavishya.
Idashani, Rupani. Idam, Rupya. Prashna kaha? Asto. Idam, Krupaya, Sarve, Gruhe, Kurvantu. Adhana, Krupaya, Sarve, Ishiratatra, Vakyani, Vadantu. Udaharanaya, Ado, Shankar Mahadeva Vastakila Udaharana Evan Karoti Aham Snaram Krutva Pujam Karomi.
Okay.
Aham Snaram Krutva Pujam Karomi Nataraja Tvam Kim Karoshi. You ask him. Okay. He says something. And then, you know, he says a sentence and asks someone else.
Okay.
Spashtamva? Okay, I'm going to stop this one this way. You know, you can say it's your sentences. Okay. शंकर महोदय आरंभं करोतु.
Sorry, what am I starting again? Sorry,
say sentence using a tvam tvanta form.
Aham snanam krutva pujya karomi.
When I said say a sentence, not the same sentence. Someone
aham griham gatva patam patami.
Uttamam. Ask someone now. Someone doesn't have to be just.
No, no, I'm just trying to think. Oh, okay. Natarajanji. Okay.
Say the full sentence. Say the full sentence. Natarajaha, Nataraja, Tvam Kim Karoshi.
Natarajaha, Kam Kim Karoshi.
Tvam Kim Karoshi.
Tvam Kim Karoshi.
Uttamam.
Aham. Asande Upavishya Patam Patami. Padmaja.
Padmaja.
Padmaje, uttamam. Padmaje.
Oh, super. Okay. Padmaje, tvam kim karoshi?
Aham, what is this? Sanganika? Computer is what?
Sanganakam.
Sanganakam.
Sanganakam. Sanganakam. Samskrutam.
Sanganakam.
Samskrutam. Patami. Ranga Bhavan I have to say Rangaha, right?
Ranga, Ranga, Sambodhane Ranga.
Tvam
Kim? Ranga or Ranga Mahodaya?
Ranga, Ranga Eva, Ranga.
Hraswam Kila?
Hraswam Eva, Hraswam Eva.
Tvam Kim Karoshi?
Ekanisham. Aham Sanganakam Samskritam Pathami va Sanganake Samskritam Pathami. Athava
Sanganake.
Okay. Anantaram. Athava Sanganakena Kimapi Bhavatu. If you translate it, it's gonna be Sanganake, but that's fine.
Okay. So that's 3 points. Okay.
Ranga Mahoday asti va saha. Saha.
No, I was on mute. Oh. Asmi. Aham yogam krutva dhyanam karomi.
Uttamam. Anjan prachato.
I need to find a person. Subhashini Bhagini tvam किम करोषि
अहम पठित्वा व्यायाम करोमि.
व्हाट डज इट मीन
अंबामान. हेलो.
व्हाट डज इट मीन
अहम पठित्वा व्यायाम करोमि.
व्यायाम मींस
एक्सरसाइज ना.
व्यायाम इज एक्सरसाइज.
व्यायाम
व्यायाम. ओके.
ओ नो व्यायाम.
व्यायामम
व्यायामम व्हाट आई नो. व्यायामम एक्चुअली
व्यायामं करोमि.
व्यायामं करोमि.
अम्बामान्ये त्वं किं करोषि.
अहं नगरं गत्वा आपणं गच्छामि.
नगरं गत्वा आपणं गच्छामि.
गच्छामि.
अनन्तरं
रंगा महोदय आप त्वं किं करोषि.
अहं स्नानं कृत्वा ध्यानं करोषि.
पुनः तदेव वाक्यं भो.
अहं स्नानं कृत्वा भोजनं करोमि.
वल्ली भगिनी न वदत् तथैव रविमहोदय तथैव पद्मदाजी न पद्म पद्म सॉरी कौसल्याजी
कौसल्या भगिनी त्वं किं करोषि
नास्ति इति मन्ये अस्तु अहमेव वाक्यं वदामि तर्हि अस्तु उदाहरणाय
महोदय अहं वदामि
अस्तु
अहं शाकां कर्तयित्वा
वण्डर्फुल्
पाकं पचामि
वण्डर्फुल् अहं शाकं कर्तयित्वा पाकं पचामि वा करोमि वा भवतु अस्तु वण्डर्फुल् वण्डर्फुल् रविमहोदय भवान् वदतु
अहं विपणि गत्वा
विपणिं
गत्वा शाकानि क्रीडानि
क्रीडति एय् क्रीडति वा वै वुड् यु प्ले आफ्टर् यु गेट् वेजिटेबल्स्
बैङ्ग् वट् यु काल्
क्रीणामि
क्रीणामि क्रीणामि
पुनः वाक्यं वदतु सम्पूर्णवाक्यं वदतु कृपया
अहं अहं विपणिं गत्वा शाकानि क्रीणामि
क्रीणामि अहं विपणिं गत्वा शाकानि क्रीणामि अहम् एकं वदामि वैद्यः औषधं ददाति वैद्यः औषधं ददाति अनन्तरं धनं स्वीकरोति वैद्यः औषधं ददाति अनन्तरं धनं स्वीकरोति ओके अम्बाजि वाक्यं वदतु अधुना
वैद्यः औषधं
धनं स्वीकरोति
ऐ हाव् अ क्वश्चन् हियर् सो देर् इस् लैक् टू इट्स् देर् रैट् सो हौ विल् यु प्रोनौन्स् इट् यु विल् स्टिल् प्रोनौन्स्
इट् एव दत्त्वा दट्स् इट्
दत्त्वा
दट्स् इट् छात्रः प्रश्नं पृच्छति छात्रः प्रश्नं पृच्छति अनन्तरम् उपविशति अनन्तरम् उपविशति छात्रः प्रश्नं पृच्छति अनन्तरम् उपविशति शङ्कर महोदय
छात्रः प्रश्नं पृत्वा
पृष्ट्वा
something upavishati sorry
you don't have the anantaram chhatrah prashnam prushtva upavishati that's it
upavishati okay
mata geetam gayati pujam karoti mata geetam gayati pujam karoti padmaja bagini
mata gayati and then pujam karoti I'm sorry can you repeat that
mata gayati pujam karoti
mata gatva pujam karoti
geetva mata sorry geetva mata geetva pujam karoti bhaktah devam namati bhaktah devam namati prarthanam karoti भक्तः देवं नमति प्रार्थनां करोति ओके नटराजन् महोदय
भक्तः देवं नत्वा प्रार्थनां करोति
प्रार्थनां करोति उत्तमं सः दुग्धं पिबति सः दुग्धं पिबति निद्राति सः दुग्धं पिबति निद्राति कौसल्य भगिनी
सः दुग्धं पीत्वा निद्राति
सः दुग्धं पीत्वा निद्राति धन्यवादः मम माता पुष्पं आनयति मम माता पुष्पं आनयति मन्दिरं गच्छति मम माता पुष्पं आनयति मन्दिरं गच्छति ओके वल्ली जी
ओ मम माता पुष्पं आनीय मन्दिरं गच्छति
मन्दिरं गच्छति वयं वार्तापत्रिकां प्राप्नुमः वयं वार्तापत्रिकां प्राप्नुमः पठामः वयं वार्तापत्रिकां प्राप्नुमः पठामः ओके रङ्गाजी
वयं वार्तापत्रिका प्राप्नुत्वा वार्तां पठामः
नो प्राप्नोति बिकम्स्
प्राप्नीय
प्राप्य
सो व्हाट इज द ओरिजिनल
प्राप्नोति
ओ प्राप्नोति
प्राप्य
नो
प्राप्य वार्तां
वार्तां पठामः
so the way you said the way you said prapnumaha is that like a is that the regular way you would say karoti like that or is it samtumun or something
no
prapnumaha is bahuvachanam right
yeah, satyam yeah so, vayam kurmaha okay. vayam prapnumaha that's it aham karomi aham karomi vayam kurmaha aham prapnomi vayam prapnumaha
so I think we got thrown off because the bahuvachanam was there
that's exactly why I said that as well right because the form doesn't change you need to understand that okay kimasti atra chhatrah uttaram janati ओके छात्रः उत्तरं जानाति लिखति छात्रः उत्तरं जानाति लिखति ओके सुभाष जी
छात्रः उत्तरं जानीत्वा जात
इज इट गे
ज्ञात्वा लिखति
छात्रः उत्तरं
ज्ञात्वा लिखति
धन्यवादः बालकाः किमिति चित्रं पश्यन्ति बालकाः चित्रं पश्यन्ति आनन्दम् अनुभवन्ति बालकाः चित्रं पश्यन्ति आनन्दम् अनुभवन्ति ओके बालकाः चित्रं पश्यन्ति आनन्दम् अनुभवन्ति शंकर महोदय
बालकाः चित्रं दृष्ट्वा आनन्दम् अनुभवन्ति
वंडरफुल बालकाः चित्रं दृष्ट्वा आनन्दम् अनुभवन्ति आनन्दम् अनुभवन्ति स्पष्टं वा डीएससी अत्र इज हैज एवरीवन यू नो प्रैक्टिस दोस एक्सरसाइजेस एक्चुअली दैट वी हैव वेल एवरीवन इज अ स्ट्रेच बट एट लीस्ट इफ मेजॉरिटी ऑफ यू हैव डन दैट वुड बी ग्रेट ओके प्लीज डू दैट बिकॉज़ देयर इज अ लॉट ऑफ सेंटेंसेस देयर इट विल गिव यू गुड प्रैक्टिस ऑनेस्टली सो प्लीज ट्राई टू डू दैट एट लीस्ट Okay. So we'll take this to the next level. Okay. You're just seeing my screen now, right?
Yes.
Yes.
Okay. There's a lot of forms here that you don't know. Don't worry. I'll tell that in English. You can just understand the concept. Okay. Rangamohadaya, patata kurpaya.
Purvam Kalinga Rajye Satya Guptaha Nama Anrupaha Asit. Tasya Putraha Kamala Pidaha Iti. Nrupasya Putraha Kamala Pidaha Bahu Adhyayanam Krutavan Asit. Adhyapi Yeshaha Ativa Buddhiman Parantu Ahankari Api.
Atra, okay, Shamata, I have to refresh this just 1 minute. Okay, this is easy. Second anecdote. Okay. Purvam. Kalingarajyam Satya Guptaha Nama Nrupaha Asit Bhutakalataha Asti Asit Bhutakale Asit iti Rupam Astu Satya Guptaha Nama Nrupaha Asit Tasya Putraha Kamala Pidaha Iti Kasya Putraha Satya Guptasya Putraha Kamala Kamalapidaha Kshamyatam Kamalapidaha iti Nrupasya Putraha Kamalapidaha Bahu Adhyayanam Akarot Akarot Karoti Ityasya Bhutakalam Akarot Astu Yadyapi Eshaha Ativa Eshaha Nama Kamalapidaha
Kamalapidaha
Ativa Buddhiman Parantu Ahankari Api Etata Svastamva?
Parantu is but, is it? Or all also? Okay, Parantu is but.
So, Mahodaya, Ahankari is Srilinga Padam.
No. Wonderful question. I was actually waiting for that. Ahankarin is the Pratipadikam. Ahankarin.
It's Ahankar. Like Kushali. It's like Kushali.
Wonderful.
Kushali.
Yes. Pumlinga padam eva asti. Ahankarin, ahankari. Nakaranta, napumsakalinga padam. Nakaranta, napumsakalinga padam.
Shekhaji, why we are using iti there? Why? I think we can say that tasya putraha kamalapidaha.
That's it. In Telugu you said kamalapidaha ani.
Okay.
That's it. It's just a style, that's it.
Style, that, okay.
That's it.
Vajana even without that, it works, right?
Yes, yeah. Yes. Etata svartam?
Yeah, what does yajnyapi mean here?
Yadyapi.
Oh, yadyapi, not
yajnyapi. Yadyapi. How do I say this? Even if kind of thing.
Okay.
Even though he's
Buddhiman, even though he's very intelligent, even though he's ahankari.
Ahankari.
Okay.
Yeah. So api, api is there. Yad plus api is yadyapi.
Wonderful. Yadi plus api, kintu.
So yad ityukte.
Not yad. Hang on. Yadi plus api. Yadyapi.
So yadi ityukte.
Yadi if.
Oh. If becomes even though. Okay.
Okay. So one thing. Okay. Don't think that, you know, you have to know all these forms before you read a story. In this way, you will never read a story. It will take you 1 year to actually even read a story. That's, don't think like that. Okay. Just start reading stories. You'll understand things over time.
What is Nrupasya? Nrupasya.
Ramaha, Ramasya, Nrupaha, Nrupasya.
Nrupasya.
Okay.
The name of the...
Oi, not kings, something that belongs to king.
Yeah.
Narupaha is king.
So, so far good?
So far good.
Yeah.
Adhyayanam akarot. Kamala pidaha. Adhyayanam. Adhyayanam nama?
Studying.
Exercise.
Practice.
Adhyayanam akarot. Wonderful. Spashtam kileta vata? And now, okay, Ambaji, Krupaya.
Maharajasya Bruhat Sainyam Asit Ekavaram Sena Vishaye Kamala Pidaha Janakam Apruchat Janakaha Etat Sainyam Vyartham Bhavan Danavyam Danavyayam Kritva Etan Sainikan Kimartha
Poshayati Kimartham
Poshayati Itaha Kim Prayojanam Iti
Maharajasya Bruhat 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 means big Bruhat Sainyam. Okay. Maharajasya Bruhat Sainyam Ekavaram Sena Vishaye Kamala Pidaha Janakam Apruchat Pruchati Pruchati Vartamanakale Apruchat Bhutakale Janakam Apruchat. He asked iti ataha Pruchati nama he's asking. He asked, okay? Apruchat nama Bhutakale Janaka Janakaha Pashatu Janaka Sambodhanamasyata Janaka Etat Sainyam Vyartham Vyartham. Bhavan Dhana Vyayam. Dhana Vyayam. Vyayam is to spend. Dhana Vyayam is very, you know, easy to understand. Bhavan Dhana Vyayam Krutva Etan Sainikan. Dvitya Bhakti Bahuvachanam. Etan Eshaha Etan. Sainikaha Sainikan Etan Sainikan Kimartham Poshayati Bhavan Poshayati Bhavan Kan Poshayati Sainikan Poshayati Kim Krutva Dhana Vyayam Krutva Etan Sainikan Poshayati Itaha 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 now is questioning. Okay, Itaha Kim Prayojanam. Okay, what is the use of this? Iti Artaha Itaha. Itaha kim prayojanam iti pruchati saha.
So Mahoda, itaha, there is one word called tataha, right? So itaha.
Tataha means from there. Itaha, yeah. Itaha means from here. In this context, itaha means from here means because of this. What is the prayojanam?
Oh.
And Shikhar, what is poshayati?
Maintaining. Maintaining.
Yes, yes.
Maintaining. Okay. Yeah.
Like feeding, like employing.
Yes.
Yeah, palayati.
Yeah, Hindi, palan portion.
Yeah.
Oh, okay. Poshak, abdina solvare.
Right. Okay, got it. Okay. Thanks.
Clear so far?
Yes.
Yep.
Okay. Next, yep. Subhashni ji, Krupaya.
Just a moment.
Ekanisham, 1 minute. Sorry, I should have actually put this first. Avadat iti padamatra. Okay, read, go ahead, sorry.
Tada Maharajaha avadat putra bhavan na janati yuddhakale sainyam atyavashyakam. Ataha sarvada Vetanam dattava sainikanam rakshanam poshanam cha karaniyam tata kurmaha chet eva sainikaha yuddhakale swartha bhavanam tyaktva yuddham kurvanti desha rakshanam cha kurvanti iti
ta prashnaha santi vatra Tada Maharajaha Avadat Vadati Avadat. Okay. महाराजः अवदत् पुत्र भवान् न जानाति युद्धकाले सैन्यम् आवश्यकम् अतः अतः सर्वदा वेतनं वेतनं सैलरी दत्त्वा सैनिकानां रक्षणं सैनिकस्य षष्टि एकवचनं सैनिकानां षष्टि बहुवचनं सैनिकानां रक्षणं पोषणं च करणीयं करणीयं नाम शुड् इति अर्थः शुड् इत्यस्मिन् अर्थे भवति सैनिकानां पोषणं च करणीयं तथा कुर्मः चेत् एव सैनिकाः युद्धकाले स्वार्थभावनां त्यक्त्वा त्यजति त्यक्त्वा युद्धं कुर्वन्ति स्वार्थभावना कः अर्थः
सेल्फिश्नेस्
त्यक्त्वा युद्धं कुर्वन्ति देशरक्षणं च कुर्वन्ति
महोदय तथा तथा इत्युक्ते यथा तथा
सत्यं सो डोंट ट्राई टू एक्चुअली so that is one problem okay don't try to think that you know we can use tatha only when there is yatha if you do like this if you do in this way iti artha Nataraj mahodaya can you translate this into tamil ala chestene
ipdi pannaka
ipdi yatha na ipdiya
yatha can you tell in telugu once again is it this or that
ala chestene
ala chestene not ila chestene ala chestene
ala ala yes apdi apdi seda apdi da ipdi illa ila na da ipdi ala means apdi apdi sanjaga
apdi sanjaga okay thank you
tata kurma cheteva sainikaha yuddhakale swartha bhavanam chaktva yuddham kurvanti
uktavan and avadat mein kya farak what is the difference
it's a different form it's exact same meaning but this here although it conveys a bhutakala artha is a namapadam this is a verb that's it that's the only difference
once more punaha
vadatu mahodaya so uktavan okay means the person that said something it's a namapadam avadat means he said something but it's a kriya padam
astu
okay
so who has this question now
subhashini
okay yeah because I heard hindi for the first time because I yeah okay never mind sorry
okay
kya farak hai
hamare I'm so used to speaking in hindi here
okay avadat spashtam vaitavat atra
spashtam
अनन्तरं पद्मजाजी कृपया पठतु
युद्धसमये एव धनं दत्त्वा भवान् जनान् आनयतु यथेष्टं जनाः लभ्यन्ते अन्नक्षेपणेन यथा काकाः आगच्छन्ति तथा धनदानेन जनाः अहमहमिकया आगच्छन्ति अहमहमिकया आगच्छन्ति इति सगर्वम् उक्त्वा कमलापीडः तत
निर्गच्छति
महाराजः तु मौनेन अतिष्ठत् महाराजः तद्रे
एतावता स्पष्टं वा सर्वप्रथमं
नो ऐ एम गोइंग टू म्यूट माय सेल्फ एंड
महाराजः अस्तु किमस्ति किमभवत् अधुना अत्र महाराजः किं वदति तत्र युद्धसमले न क्षम्यतां कमलापीडः वदति किल अधुना अत्र कमलापीडः वदति किं वदति सः युद्धसमये एव अस्तु अधुना युद्धं न प्रचलति एव ओके अधुना युद्धं न प्रचलति तर्हि किमर्थं धनं दातव्यं यदि युद्धसमये एव धनं दत्त्वा जनान् भवान् आनयतु अधुना किमर्थं जनाः अत्र तेषाम् आवश्यकता एव नास्ति युद्धं न प्रचलति इत्यस्मात् जनाः अपि न आवश्यकाः युद्धसमये एव धनं दत्त्वा जनान् आह्वयतु तेन धनव्ययः न भवति अस्तु यथेष्टं जनाः लभ्यन्ते एव जनाः सर्वत्र सन्ति इट्स् नाट् लैक् दट् यु विल् नाट् गेट् देम् यथेष्टं जनाः लभ्यन्ते लभ्यन्ते नाम अवेलेबल् यथेष्टं नाम as much as you need ओके यथेष्टं जनाः लभ्यन्ते अन्नक्षेपणेन एव क्षेपणं त्रो अन्नक्षेपणम् ओके इट्स् ऐ थिङ्क् इट्स् क्लियर् अन्नक्षेपणेन यथा काकः आगच्छन्ति तथा एव धनदानेन जनाः अहमहमिकया मीन्स् हौ डु ऐ पुट् दिस् so when there's a this one right when you throw this election times and stuff right if you throw this pulhara packets and you know this liquor how people actually come that is what this means ahamahmika
what is it what's a telugu word for that sorry
nagavali 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 ante ostaru kada that's why
okay
literal translation is assertion of superiority in Sanskrit dictionary
of they might crave for it you know
craving yes
yeah yes
there's no shortage of people yes
yes
okay good so far is that word clear
yes
ahamahamikam kasto agacchanti iti सगर्वं सगर्वं नाम गर्वेण सगर्वं नाम गर्वेण वित् प्रैड् गर्वेण उक्त्वा कमलापीडः ततः निर्गच्छति नाम लेफ्ट् हि लेफ्ट् निर्गच्छति महाराजः मौनेन अतिष्ठत् नाम हि स्टुड् देयर् तिष्ठति अतिष्ठत् महाराजः मौनेन अतिष्ठत्
Okay, is there any difference between gacchati and nirgacchati? Both are same, right? We could have used tatah gacchati also, right? Or does it?
There's nothing. Nirgacchati means to return. When you say return, you know, he went back to the same place.
Okay.
Gacchati means he left, he went, but where you don't know.
Okay. Okay.
When you say he returned, right?
Okay.
So you said atishtatu means, what you said?
Atishtatu, tishtati atishtatu.
Oh, okay.
Clear?
Clear.
Mahodaya, what is kaka?
Kakaha, crow, kakaha.
Okay.
Gacchati means go, to go.
To go. Agacchati, oh, you're here. Okay, Sheetalji, you're here?
Yes, okay. Yes.
ओके गच्छति गो आगच्छति टु कम् निर्गच्छति गृहं निर्गच्छामि मीन्स् यु नो ऐ एम् लीविङ्ग् टु मै हौस्
ओके ओके
गुड् सो फार्
निर्गच्छति सेम् सेम् लैक् गच्छति
It can mean same as gacchati, but usually, you know, when you say nirgacchati, right? When you're leaving to a place, you say, I'm nirgacchami.
Villanu.
Not villanu, gaadu. Inka veltanu.
Veltanu, kavisha.
Then nirgacchati. Good so far?
The summary of the para is what he's basically saying, why are you wasting money? Wouldn't they come, if you just kind of throw away money, they'll come?
Yes.
ततः निर्गच्छति मीन्स्
फ्रॉम देयर इति अर्थः
प्लेस दैट्स व्हाट इट मीन्स इज इट नॉट
Tatah, he left that place where he was talking with his father.
Yes, yes, yes. He left that place, yes. Tatah nirgachati. Kutra, we don't know. He left that place, iti artaha.
Destination is not specified, but he has left this place.
That's it, yes. Clear so far?
So, Mahodaya, we have two. Nirgachati is present tense. And Atishtavat is
Atishtatu.
Atishtatu.
Atishtatu is past tense. So, why we are mixing both?
That is a very good question. I should say Niragachat here. That is a very, very good question. Sorry. I should say Niragachat. That is correct. Sorry. It has here, it has to be past tense. It says Niragachat.
So no A will come there in front of Ni because it is past Bhutakalam.
No. It is Agachat, right?
Wonderful. It is Agachat. It is Nir plus Agachat. Niragachat.
Nir Agachat. Okay, Astu.
Niragachat.
It is Nir
plus Agachat.
Plus agachat. It becomes niragachat.
So that way they might have used nirgatvan.
That's exactly, yes.
She wanted to make it simple, but it became complicated.
Yeah. Niragachat is the word. Okay. Maharajaha Anantram. Kaha patati adhana? Ambaburliji, patati kurpaya?
महाराजः कहिने रात्रौ
कहिने वा तद्दिने
तद्दिने तद्दिने तद्दिने रात्रौ पुत्रं एकं स्थानं नीत्वा पात्रे अन्नं स्थापयित्वा पुत्रं
अवदत्
इदानीं अन्नं क्षिप्त्वा काकान् आह्वय इति तदा राजकुमारः उपहासपूर्वकम् उक्तवान्
अवदत्
रात्रौ कथं वा काकाः आगच्छन्ति किं भवान् मूर्खः अस्ति इति
स्पष्टमिति मन्ये अत्र महाराजः तद्दिने नाम तस्मिन्नेव दिने रात्रौ रात्रिः रात्रौ सप्तमी एकवचनं रात्रौ पुत्रम् एकं स्थानं नीत्वा पात्रे अन्नं स्थापयित्वा पुत्रम् अवदत् पुत्र इदानीम् अन्नं क्षिप्त्वा काकान् आह्वय आह्वयतु नास्ति आह्वय नाम पुत्र त्वं त्वम् इदानीम् अन्नं क्षित्वा काकान् आह्वय त्वम् अत्र पदं नास्ति पश्यन्तु तथापि अद्याहारः करणीयः यु हेव् टु यु नो इट्स् इन्फर्ड् हियर् दट्स् इट् काकान् आह्वय तदा राजकुमारः उपहासपूर्वकम् अवदत् रात्रौ कथं काकाः आगच्छन्ति किं भवान् मूर्खः अस्ति इति ऐम् होपिङ्ग् दिस् इस् क्लियर्
अनन्तरं
शंकर महोदय भवान् पठतु
तदा महाराजः उक्तवान्
अवदत्
तदा महाराजः उक्तवान् न अहं मूर्खः भवतः अविवेकस्य निवारणार्थम् अहम् एवं कृतवान् यथा रात्रौ अन्नदानं कृतं चेदपि काका न आगच्छन्ति तथा धनं दत्तं चेदपि युद्धकाले सैनिकाः न लभ्यन्ते अतः सर्वदा वेतनं दत्त्वा सैन्यं रक्षणीयम् इति. तदा पुत्रः स्वकीयम् अविवेकं ज्ञात्वा महाराजस्य पाद्योः पतित्वा क्षमां प्रार्थयत्.
अस्तु. तदा महाराजः अवदत् न अहं मूर्खः भवतः अविवेकस्य निवारणार्थम् ओके अविवेकस्य निवारणार्थम् अहम् एवम् अकरोत् यथा रात्रौ अन्नदानं कृतं चेदपि काकाः न आगच्छन्ति तथा एव धनं दत्तं चेदपि युद्धकाले सैनिकाः न भवन्ति न लभ्यन्ते अतः एव वेतनं दत्त्वा सैन्यं रक्षणीयम् अधुना तदा पुत्रः स्वकीयम् अविवेकं स्वकीयं नाम सेल्फ् हिज़ोन् इस् स्वकीयं स्वकीयम् अविवेकं ज्ञात्वा महाराजस्य पादयोः पतित्वा इस् सप्तमी द्विवचनं पादः पादयोः पतित्वा क्षमां प्रार्थयत् चेदपि तथा धनं दत्तं चेदपि यदि धनं दत्तमस्ति तथापि युद्धकाले सैनिकाः न लभ्यन्ते इति अर्थः
इवन इफ
यदि if right now ched is also if
yes
okay
just like ravi suryaha bhanuhu is suryaha prabhakaraha is suryaha okay. yadi is if ched is also if spashtam va
spashtam
yes nice story
ahankari नपुंसकलिङ्गे भवति इति भवान् अवदत्
नपुंसकलिङ्गे वा नपुंसकलिङ्गे नास्ति वेन् डिड् ऐ से इट् इस् नपुंसकलिङ्गे
इदानीम्
अहङ्कारी इति पदं नपुंसकलिङ्गे अस्ति इति उक्तं वा नकारान्तपुंलिङ्गपदम्
त्रिलिङ्गेषु भवति इति
सत्यं त्रिलिङ्गेषु भवति किन्तु पुंलिङ्गे प्रातिपदिकमस्ति अहङ्कारिन्
नपुंसकलिङ्गे अपि प्रातिपदिकं तु अहङ्कारिनेव
किन्तु स्त्रीलिङ्गे किं भवति अहङ्कारिणी भवति
अहङ्कारिणी लैक् नदी
सत्यं नदीवत् तत्र
नपुंसकलिङ्गे
अहङ्कारिन्येव
And if it is a pumlinga, we should say ahankara, or meaning he is a arrogant guy.
No.
So should I say tasya ahankarin or ahankara?
Tasya ahankara, kintu saha ahankari.
Oh, okay.
Yatha mama anandaha aham santushtaha.
Hmm.
Tatayava tasya ahankaraha saha ahankari.
Okay.
Katha spashta kila?
Spashtam mahadeva.
Katha spashtam.
Uttam. Tarhi adhana atreva samapayama prashnaha santichet krupaya pruchantu